सुरद्विषोपप्लुतमेवमेतत् वनं बलस्य द्विषतो गतश्री इत्थं विचिन्त्यारुणलोचनोऽभूत् भ्रूभङ्गदुष्प्रेक्ष्य मुखः सकोपात्।
सुरद्विषेति सः कुमारः एतत् पुरोवर्ति बलस्य द्विषतः इन्द्रस्य अत्र नलोक इत्यादिना षष्ठीनिषेधेऽपि द्विषश्चतुर्वा इति विकल्पात् षष्ठी वनम् उपवनम् सुरद्विषा तारकेणैव न केनापि यथा तारकेण उपद्रुतम् तथा न केनापीति अवधारणार्थक एव कारेण ध्वन्यते एव प्रकारोपमयोः अङ्गीकारावधारणे इति विश्वः अभितः सर्वतः उपप्लुतम् उपद्रुतम् अत एव गतश्री नष्टशोभम् इत्थं विचिन्त्य कोपात् अरुणे लोचने यस्य तथा भ्रूभङ्गेन दुष्प्रेक्ष्यं दुर्दर्शं मुखं यस्य तथोक्तश्च अभूत् महतां सति स्वस्मिन् परदुःखं महादुःखावहं भवतीति भावः।
निर्लूनलीलोपवनामपश्यत् दुःसञ्चरीभूतविमानमार्गाम् विध्वस्तसौधप्रचयाम् कुमारः विश्वैकसारामरावतीम् सः।
निर्लूनेति सः कुमारः कार्तिकेयः निर्लूनानि कर्तितानि लीलायाः क्रीडायाः उपवनानि यस्याम् तथा दुःखेन सञ्चरः सञ्चारः येषु तथाभूताः विमानमार्गाः विमानसञ्चारपथाः यस्याम् तथा विध्वस्ताः खण्डिताः स्फोटिताः इति यावत् सौधप्रचयाः राजसदनसमूहाः यस्याम् सौधोस्त्री राजसदनम् इत्यमरः तथा विश्वस्मिन् एकामेव साराम् तत्त्वभूताम् ताम् अमरावतीम् इन्द्रपुरीम् अपश्यत् नगरी त्वमरावती इत्यमरः।
गतश्रियं वैरिवराभिभूताम् दशां सुदीनामभितो दधानाम् नारीमवीरामिव तामवेक्ष्य स बाढमन्तःकरुणापरोऽभूत्।
गतश्रियमिति सः कुमारः वैरिवरेण तारकेण अभिभूताम् पूर्वोक्तविधिना पराभूताम् पराभवः अत्र विध्वंसनक्रियानुकूलः व्यापारः ग्राह्यः अत एव गतश्रियम् भ्रष्टशोभाम् अत एव सुतराम् दीनाम् कृपणाम् अनुकम्प्यामिति यावत् दशाम् अवस्थाम् अभितः दधानाम् अत एव अवीराम् नपुंसकभर्तृकाम् नारीमिव स्थिताम् ताम् अमरावतीम् अवेक्ष्य अन्तः मनसि बाढम् बहु यथा तथा करुणायाम् परः आसक्तः अभूत्।
दुश्चेष्टिते देवरिपौ सरोषः तस्याविषण्णः समराय चोत्कः तथाविधां तां सविवेश पश्यन् सुरै सुराधीश्वर राजधानीम्।
दुश्चेष्टित इति, दुश्चेष्टिते दुष्कर्मणि देवरिपौ तारके विषये सरोषः सक्रोधः तथा तस्य तत्कर्तृकाय समराय समरं युद्धं कर्तुम् उत्कश्च तथा विषण्णः अनलसः स कुमारः तथाविधां पूर्वोक्तप्रकारां ताम् सुराधीश्वरस्य इन्द्रस्य राजधानीं पुरीं पश्यन् सन् विवेश तदन्तः इति शेषः।
दैतेयदन्त्यावलिदन्तघातैः क्षुण्णान्तरास्फाटिकहर्म्यपङ्क्तीः महाहि निर्मोकपिनद्धजालाः स वीक्ष्य तस्याम् विषसादसद्यः।
दैतेयेति दैतेयानाम् दैत्यानाम् दन्त्यावलिः गजावलिः तस्याः तत्कर्तृकाः ये दन्तघाताः रदनपीडितानि तैः क्षुण्णान्तराः क्षोदितमध्याः अत एव महाहीनाम् महासर्पाणाम् निर्मोकाः कञ्चुकाः समौ कञ्चुकनिर्मोकौ इत्यमरः तैः पिनद्धानि जलानि सौधजलानि यासु ताः स्फटिकहर्म्यपङ्क्तीः स्फटिकनिर्मितसौधनिचयान् वीक्ष्य सः सद्यः तस्याम् विषसाद खिद्यति स्मेत्यर्थः सद्यः सपदि तत्क्षणे इत्यमरः।
उत्कर्णचामीकरपङ्कजानाम् दिग्दन्तिदानद्रवदूषितानाम् हिरण्यहंसव्रजवर्जितानाम् विदीर्णवैदूर्यमहाशिलानाम् आविर्भवद्बालतृणाञ्चितानाम् तदीयलीलागृहदीर्घिकाणाम् स दुर्दशाम् वीक्ष्य विरोधिजाताम् विषादवैलक्ष्यभरम् बभार।
उत्कीर्णेति आविर्भवदिति च सः कुमारः उत्कीर्णानि उत्खनितानि चामीकरस्य सुवर्णस्य पङ्कजानि कमलानि यासाम् उत्खनितसुवर्णकमलानामित्यर्थः तथा दिग्दन्तिनाम् ऐरावतादीनाम् दानाः खण्डनाः तज्जेतारः तारकजाः कर्तरि ल्युट् तेषाम् द्रवः मदजलम् तेन दूषितानाम् म्लानीकृतानाम् तारककुम्भीन्द्रमदकलुषीकृतजलानामित्यर्थः। हिरण्यप्रचुराः ये हंसाः तेषाम् व्रजेन वर्जितानाम् रहितानाम् दैत्योपद्रवादिति भावः तथा विदीर्णाः स्फोटिताः वैदूर्याणाम् रत्नविशेषाणाम् महत्यः शिलाः यासाम् तथा आविर्भवन्ति उदयमानानि यानि बालतृणानि शष्पाणि तैः अञ्चितानाम् व्याप्तानाम् तदीयाः ऐन्द्रियः याः लीलार्थम् गृहदीर्घिकाः गृहवापिकाः तासाम् सम्बन्धिनीम् विरोधिभ्यः अरिभ्यः जाताम् दुर्दशाम् दुष्टावस्थां वीक्ष्य विषादवैलक्ष्ययोः खेदलज्जयोः भरम् बह्व्यौ विषादलज्जे इत्यर्थः बभार दुर्दशादर्शनजनितकरुणाबीजं दुःखं मयि सत्यपि सुदुर्दशेति लज्जाहेतुरित्यर्थः
तद्दन्ति दन्तक्षतहेमभित्ति सुतन्तुजालाकुलरत्नजालाम् निन्ये सुरेन्द्रेण पुरोगतेन स वैजयन्ताभिधमात्मसौधम्
तद्दन्तीति सः कुमारः सुरेन्द्रेण इन्द्रेण पुरोगतेन अग्रण्या सता तस्य तारकस्य दन्तिनां गजानां दन्तैः क्षताः क्षुण्णाः हैम्यः भित्तयः कुड्यानि यस्मिन् यस्य वा सुतन्तवः लूतानां शोभनानि सूत्राणि तेषां जालेन आकुलं व्याकुलं रत्नजालं रत्नसमूहः यस्मिन् तथा वैजयन्ताभिधं वैजयन्तसंज्ञकम् स्यात्प्रासादो वैजयन्तः इत्यमरः आत्मसौधं स्वराजसदनं निन्ये प्रापितः कर्मणि लिट्
निर्दिष्टवर्त्मा विबुधेश्वरेण सुरैः समग्रैरनुगम्यमानः स प्राविशत्तं विविधाश्मरश्मि छिन्नेन सोपानपथेन सौधम्
निर्दिष्टेति सः कुमारः विबुधेश्वरेण इन्द्रेण कर्त्रा निर्दिष्टवर्त्मा इतः गमनं विधेयम् इत्युक्तिपूर्वकप्रदर्शितमार्गः तथा समग्रैः सुरैः देवैः अनुगम्यमानः अनुश्रियमाणः सन् विविधाः अनेकवर्णाः ये अस्मानः रत्नानि तेषां रश्मिभिः किरणैः छिन्नेन भिन्नेन रहितेनेति यावत् तारककृतसोपानखचितरत्नोत्पाटनादिति भावः सोपानपथेन आरोहणमार्गेण आरोहणं स्यात् सोपानम् इत्यमरः तं सौधं प्राविशत्
निसर्गकल्पद्रुमतोरणं तम् स पारिजात प्रसवस्रगाढ्यम् दिव्यैः कृतस्वस्त्ययनं मुनीन्द्रैः अन्तःप्रविष्टप्रमदं प्रपेदे
निसर्गेति सः कुमारः निसर्गेण स्वभावेन अनायासेनेति यावत् निसर्गशीलसर्गयोः इति विश्वः कल्पद्रुमा एव तोरणानि यत्र तथा पारिजातस्य देववृक्षविशेषस्य प्रसवानां पत्रपुष्पाणां स्रजा मालया आढ्यं युक्तम् पूजनार्थम् अनेकपत्रपुष्पसहितम् इत्यर्थः तथा दिव्यैः स्वर्गीयमुनीन्द्रैः कश्यपादिभिः कृतस्वस्त्ययनं विहितस्वस्तिवाचनं तथा अन्तःप्रविष्टाः मध्यं प्रविश्य स्थिताः प्रमदाः स्त्रियः यत्र तं सौधं प्रपेदे प्राप
पादौ महर्षेः किल कश्यपस्य कुलादिवृद्धस्य सुरासुराणाम् ప్రదక్షిణీకృత్య కృతాంజలిస్సన్ షడ్భిః శిరోభిః సనతైర్వవందే.
పాదావితి సః కుమారః సురాసురాణాం దేవదైత్యానాం కులః ఆదివృద్ధస్య కశ్యపస్య మహర్షేః పాదౌ చరణౌ కర్మభూతౌ ప్రదక్షిణీకృత్య కృతాంజలిస్సన్ నతైః షడ్భిః శిరోభిః వవందే నమశ్చక్రే. కిలేతి ఐతిహ్యే.
స దేవమాతుర్జగదేకవంద్యౌ పాదౌ తథైవ ప్రణనామకామం మునేః కలత్రస్య చ తస్య భక్త్యా ప్రహ్వీభవన్ శైలసుతా తనూజః.
స ఇతి స శైలసుతా తనూజః పార్వతీనందనః భక్త్యా నిమిత్తేన ప్రహ్వీభవన్ నమ్రీభవన్ సన్ మునేశ్చ తస్య కలత్రస్య పత్న్యాశ్చ దేవానాం మాతుః జనన్యాః అదితేః. జగతః ఏకవంద్యౌ కేవలనమస్కరణీయౌ పాదౌ తథైవ మునినమస్కారప్రకారేణైవ కామం యథాయోగ్యం ప్రణనామ నమశ్చక్రే.
స కశ్యపః సా జననీ సురాణాం తమేధయామాస తురాశిషాద్వౌ తయా యయా నైక జగజ్జిగీషుం జేతామృధే తారకముగ్రవీర్యం.
స ఇతి స కశ్యపో మునిః సా సురాణాం జననీ అదితిః ఏతౌ ద్వౌ తం కుమారం తయా ఆశిష ఆశీర్వాదేన ఏధయామాసతుః వర్ధయతః స్మ. యయా ఆశిష నిమిత్తేన అగ్రవీర్యం అత ఏవ నైక జగంతి అనేక జగంతి త్రీణి జగంతీత్యర్థః. జిగీషుం జేతుమిచ్ఛుం నలోక ఇతి షష్ఠీ నిషేధః. తారకం దైత్యం మృధే సంగరే జేత జేష్యతీత్యర్థః. కర్తరి లుట్.
స్వదర్శనార్థం సముపేయుషీణాం సుదేవతానామదితిశ్రితానాం పాదౌ వవందే పతిదేవతాస్తం ఆశీర్వచోభిః పునరభ్యనందన్.
స్వేతి సః కుమారః స్వదర్శనార్థం స్వావలోకనార్థం సముపేయుషీణాం ప్రాప్నువతీనాం తథా అదితిం దేవమాతరం శ్రితానాం దేవమాతుః ఆశ్రయేణ జీవంతీనామిత్యర్థః. శోభనాః సౌభాగ్యవత్యః దేవతాః తాసాం పాదౌ చరణౌ వవందే ప్రణనామ. అథ చ పతిరేవ దేవతా యాసాంతాః పతివ్రతాః తాః దేవతాస్తు ఆశీర్వచోభిః త్వం జయ ఇత్యాదిభిః పునః తం కుమారం అభ్యనందన్ అస్తువతేత్యర్థః.
పులోమ పుత్రీం విబుధాధిభర్తుః తతశచీం నామ కలత్రమేషః నమశ్చకార స్మర శత్రుసూనుః తమాశిషాసా సముపాచరచ్చ.
పులోమ పుత్రీమితి తతః అనంతరం नामेति योग्यता प्रतिपादकम् अव्ययम् अव्ययानाम् अनेकार्थत्वात् ततश्च प्रणामकर्तृत्वयोग्य इत्यर्थः न च पुलोमपुत्र्या एव प्रणामार्हत्वविवक्षया विशेषणता स्यादिति वाच्यम् विबुधाधिभर्तृसम्बन्धोद्घाटनेनैव ध्वनितत्वात् एषः स्मरशत्रुसूनुः कुमारः विबुधानाम् देवानाम् अधिभर्तुः इन्द्रस्य कलत्रम् स्त्रीभूताम् शचीम् शचीसंज्ञिकाम् पुलोमपुत्रीम् नमश्चकार अथ च सा इन्द्राणी आशिषा आशीर्वादेन तम् कुमारम् समुपाचरत् अवर्धयदित्यर्थः
अथादितीन्द्रप्रमदाः समेताः तामातरः सप्तघनप्रमोदाः उपेत्य भक्त्या नमते महेश पुत्राय तस्मै ददुराशिषः प्राक्
अथेति अथ अनन्तरम् घनप्रमोदाः सान्द्रानन्दाः कुमारावलोकनादिति भावः अत एव समेताः एकत्रभूताः ताः अदितीन्द्रस्य कश्यपस्य प्रमदाः स्त्रियः सप्तमातरः ब्राह्मीप्रभृतयः भक्त्या निमित्तेन उपेत्य समीपम् आगत्य नमते नमस्कुर्वते तस्मै महेशपुत्राय कुमाराय तारकविजयसाधनाः आशिषः आशीर्वादात् प्राक् नमस्कारात् पूर्वमेव ददुः
समेत्य सर्वेऽपि मुदम् दधानाः महेन्द्रमुख्यास्त्रिदिवौकसोऽथ आनन्दकल्लोलितमानसम् तम् समभ्यषिञ्चन् पृतनाधिपत्ये
सेति अथ अनन्तरम् मुदम् दधानाः महेन्द्रमुख्याः इन्द्रप्रभृतयः सर्वेऽपि त्रिदिवौकसः देवाः आनन्देन भावितारकयुद्धकर्तृत्वजन्मना कल्लोलितम् तरङ्गितम् मानसम् सर एव मानसम् चेतः यस्य तम् महानन्दमित्यर्थः तम् कुमारम् पृतनाधिपत्ये सैनापत्ये समभ्यषिञ्चन् अभिषिक्तम् अकुर्वन्
सकलविबुधलोकस्रस्तनिःशेषशोकः कृतरिपुविजयाशः प्राप्तयुद्धावकाशः अजनिहरसुतेनानन्तवीर्येण तेन अखिलविबुधचमूनाम् प्राप्य लक्ष्मीमनूनाम्
सकलेति अनन्तवीर्येण अपारपराक्रमेण अत एव अनूनाम् महतीम् अखिलाः याः विबुधचम्प्वः देवसेनाः तासाम् लक्ष्मीम् वैभवम् प्राप्य स्थितेन तेन हरसुतेन हरसुत साहाय्येनेत्यर्थः सकलविबुधलोकः समस्तवृन्दारकनिचयाः स्रताः ध्वस्ताः नष्टाः इति यावत् निःशेषाः समग्राः शोकाः यस्य तथा कृता रिपोः तारकस्य विजयः आशा येन तथा प्राप्तः युद्धाय अवकाशः అవసరః యేన తథాభూతశ్చ అజని జాతః కుంఠితవీర్యాణాం సవీర్య సాహాయ్యకమేవ కార్యసిద్ధిహేతుర్భవతీతి భావః మాలినీవృత్తమేతత్ లక్షణం తు పూర్వమేవోక్తం ఇతి శ్రీ పర్వణీకరోపనామక శ్రీ లక్ష్మణ భట్టాత్మజ సతీగర్భసంభవ శ్రీ సీతారామ కవి విరచితయా సంజీవినీ సమాఖ్యయా వ్యాఖ్యయా సమేతః శ్రీ కాళిదాసకృతౌ కుమార సంభవే మహాకావ్యే కుమార సైనాపత్యాభిషేకో నామ త్రయోదశ సర్గః